अथाष्टाविंशोध्याय वरुण लोक से नंद जी को छुड़ा कर लाना। श्री शुक उवाच एकादश्याम निराहारः समभ्यर्च्य जनार्दनम स्नातुं मन्दस्तु कालिन्द्या द्वादश्याम जलमाविशत् तम गृहीत्वा नयद्भृत्यो वरुणस्यासुरन्तिकम् अविज्ञायासुरीं बेलां प्रविष्टमुदकं निशि चुक्रशुस्तम पश्यन्तः कृष्णरामेति गोपकः भगवांस्तदुपश्रुत्य पितरं वरुणाहृतम् तदन्तिकं गतो राजन् स्वानामभयदो विभुः प्राप्तं वीक्षहर्षि केशं लोकपालः सपरेया महत्या पूजयित्वा तद्दर्शन महोत्सवः। वरुण उवाच अद्य मे निभृतो देहो अद्यैवार्थोऽधिगतः प्रभो तत्पादभाजो भगवन् अवापुः पारमध्वनः नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने न यत्र श्रूयते माया लोकसृष्टिविकल्पना अजानता माम केन मूढेन कार्यवेदिना आनीतोऽयं तौ पिता तद्भवान् सन्तुमर्हति ममाप्यनुग्रहं कृष्ण कर्तुमर्हसि शेषदृक् गोविन्द नियतामेष पिता ते पितृवत्सल। श्री शुक उवाच एवं प्रसादितः कृष्णो भगवान् ईश्वरेश्वरः अदायागात् स्वपितरं बन्धूनां चावहन् मुदम् नन्दस्त्वतीन्द्रियं दृष्ट्वा लोकपालमहोदयं कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितो ब्रवीत् ते त्वत्सुक्य धियो राजन् मत्वा गोपास्तमीश्वरम् अपि नः स्वगतिं सूक्ष्ममुपाध्यास्य दधीश्वरः इति स्वानां स भगवान् विज्ञाया खिलदृक्स्वयं संकल्पसिद्धये तेषां कृपयेतदचिन्तयत् जनो वै लोक एतस्मिन् अविद्या कामकर्मभिः उच्चावचासु गतसु न वेद स्वाम गतिम् भ्रमन् इति संचिन्त्य भगवान् महाकारुणिको हरिः दर्शयामास लोकम् स्वम् गोपानाम् तमसः परम् सत्यम् ज्ञानमनन्तम् यद् ब्रह्म ज्योतिः सनातनम् यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ते तु ब्रह्महृदम् नीता मग्नः कृष्णेन चोद्धृतः ददृशुर्ब्रह्मणो लोकम् यत्र क्रूरोऽध्यगात्पुरा नन्दादयस्तु तम् दृष्ट्वा परमानन्द निर्वृतः कृष्णम् च तत्र छन्दोभिः स्तूयमानम् सुविस्मितः। इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे अष्टाविंशोऽध्यायः।